पितासि लोकस्य चराचरस्य त्वमस्य पूज्याश्च गुरुर्गरीयान् न त्वत्समोऽस्त्यभ्यधिका कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वामहमीश मीड्यम् पितेव पुत्रस्य सखेव सख्यु प्रिय प्रियायार्हसि देव सोधु अदृष्टपूर्वम् रुषितोऽस्मि दृष्ट्वा भयेन च प्राव्यथितं मनो मे तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते
श्री भगवान उवाच
मया प्रसन्ने न तवार्जुनेदम् रूपं परं दर्शितमात्मयोगा तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वं न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरु प्रवीर मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमिदृक् ममेदम् व्यपेतभिप्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य
संजय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्य वपुर्महात्मा
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेता प्रकृतिं गतः
श्री भगवान उवाच
सुदुर्दर्शम् इदं रूपं दृष्टवानसि यन्मम देवाप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः
नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा
भक्त्या त्वनन्यया शक्या अहमेवं विधो अर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप
मत्कर्म कृन्मत्परमो मद्भक्तः संगवर्जितः वैरः सर्वभूतेषु यः स मामेति पाण्डवः।
ॐ तत्सदिति श्रीमद्भगवद्गीतासोपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः। अथ द्वादशोऽध्यायः। अर्जुन उवाच: भगवान् उवाच:
मया वेश मनो ये माम् नित्ययुक्ता उपासते श्रद्धया परयोपेतास्ते मे युक्ततमाः मताः ये त्वक्षरमनिर्देशम् अव्यक्तम् पर्युपासते
सर्वत्र गमचिन्त्यम् च कूटस्थमचलम् ध्रुवम्
सन्नियम्येन्द्रियग्रामम् सर्वत्र समबुद्धयः
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः
क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसा अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवाप्यते
अनन्ये नैव
तेषामहं समुद्धर्ता मृत्यु संसार सागरा मयि बुद्धिं निवेशय
निवसिष्यसि मयि अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय
अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि
तदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः
सर्वकर्मफलत्यागम् ततः कुरुयतात्मवान्
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुख क्षमे
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः मयि अर्पितमनो यो मद्भक्तः स मे प्रियः
यस्मान्नो द्विजते लोको लोकान्नो द्विजते चयः
हर्षामर्षभयो वेगैः मुक्तो यः स च मे प्रियः
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः
यो नरिष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः
समः शत्रो च मित्रे च तथा मानापमानयोः
शीतोष्णसुखदुःखेषु समः संग विवर्जितः
तुल्यनिन्दास्तुतिर्मौनि संतुष्टो येन केनचित्
अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते श्रद्धधानाः मत्परमाः भक्तास्तेव मे प्रियाः
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः अथ त्रयोदशोऽध्यायः श्रीभगवान् उवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्राज्ञयोर्ज्ञानं यत्तद् ज्ञानं मतं मम तत्क्षेत्रं यच्च यादृक् च यद्विकारि यताश्च या स च यो यत् प्रभावाश्च तत्समासेन मे शृणु।
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः।
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः।
इच्छा द्वेषः सुखं दुःखं सङ्गातश्चेतना धृतिः एतत्क्षेत्रं समासेन सविकारमुदाहृतम्।
शान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः।
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च जन्ममृत्युजराव्यादिदुःखदोषानुदर्शनम्।
असक्तिरनभिष्वङ्गः पुत्रधारगृहादिषु
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु
वैचानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्।
एतज्ज्ञानमिति प्रोक्तमज्ञानम् यद् तो
ज्ञेयं यत्तत् प्रवक्ष्यामि यद्ज्ञात्वामृतमश्नुते अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते।
सर्वतः पाणिपादं तत् सर्वतोक्षिशिरो मुखम् सर्वतः श्रुतिमत् लोके सर्वमावृत्य तिष्ठति।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृत्यैव निर्गुणं गुणभोक्तृ च बहिरन्तश्च भूतानाम् अचरं चरमेव च सूक्ष्मत्वात्तदविज्ञेयं दूरस्थ कथं चान्तिके च तत्
अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च
ज्योतिषामपि तज्ज्योति तमसः परमोच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मद्भक्ता एतद्विज्ञाय मद्भावायोपपद्यते प्रकृतिं पुरुषं चैव विध्यनादि उभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवा
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसङ्गोऽस्य सदसत्यो निजन्मसु उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्योक्तो देहेस्मिन् पुरुष परः
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन च परे
यावत् संजायते किञ्चित् सत्वं स्थावरजङ्गमं क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभा समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत् स्वविनश्यन्तम्। यपश्यति सपश्यति।